एष रेडियो नेपालः सम्प्रति समाचारः श्रुयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली राजनीतिक स्थिरतातः भ्रष्टाचारेण च सिम्नः अतिक्रमणानन्तरम् विपुलदलद्वयस्य सहकार्येण नूतन वर्तमान सर्वकारः संघटनीयोभूतीति स्पष्टयति। नेपालोत्पीडित जातीय मुक्ति समाजस्य सप्तत्रिंशत्तम स्थापना दिवसस्य अवसरे ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे नेकपा एमाले दलस्य अध्यक्षश्च प्रधानमन्त्री ओली राजनीतिक स्थायित्वं सुशासनं च स्थापयितुं नूतन सर्वकार संघटितोऽस्तीति स्पष्टीकृतवान्। प्रधानमन्त्री ओली जातीय स्पृश्यापृश्यतां साम्प्रदायिकतां च निरसयितुं वर्तमान सर्वकार तत्परोऽस्तीति अभासत। कार्यक्रमे नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा जातीय समानतां सुनिश्चेतुं संविधानस्य विदेश च पालनया सहैव सामाजिक सुधारोऽपि आवश्यको भवतीति अगदत्। प्रधानमन्त्रिणा केपी शर्मा ओलिना सह नेपालस्य कृते संयुक्त अरब इमिरेट्स यूएई देशस्य राजदूतेन अब्दुल्ला अल शम्सी इत्यनेन शिष्टाचार मेलवार्ता विहितास्ति। बालवाटारावर्तिनी प्रधानमन्त्री निवासे ह्य सम्भूते मेलने राजदूत शम्सी आगामिनः फेब्रुवरी मासस्य द्वितीय सप्ताहे दुबई नगरे आयोक्ष्यमाणे वर्ल्ड गवर्नमेन्ट्स समिट इति नामाख्ये विश्वस्य सर्वकाराणां सम्मेलने भागं ग्रहीतुं यूएई देशस्य उपराष्ट्रपतिना प्रधानमन्त्रिणा च मोहम्मद बिन रशीद अल माक्टुम इत्यनेन प्रेषितं निमन्त्रणापत्रं प्रधानमन्त्रिणे प्रादात्। मेलनस्य अवसरे द्वयोः देशयोः एतत्पूर्वं सम्भूतानां संविधानां प्रभावकारी क्रियान्वयनस्य विषये आगामी दिनेषु व्यापार निवेश कृषि जलविद्युत पर्यटनादि क्षेत्रेषु सम्भावितानां संविधानां सहकार्यस्य विषये च विमृष्टम् आसीत्। राष्ट्रपते रामचन्द्र पौडेल भारतदेशस्य कृते मलेसियादेशस्य कृते च राजदूतो नियुक्तवान् अस्ति। राष्ट्रपतिना पौडेलेन मन्त्रिपरिषद परामर्शेन भारतदेशस्य कृते डाक्टर शंकर प्रसाद शर्मा मलेसियादेशस्य कृते डाक्टर नेत्र प्रसाद तिमल सिन्हा च आवासीय राजदूत पदे नियुक्तौ स्त इति राष्ट्रपति कार्यालयेन ज्ञापितं वर्तते। सभामुखा देवराज घिमिरे व्यवस्थापिका संसदः भूमिकां प्रभावकारिणीं विधातुं बलं ददाति। पोखरायां सम्पन्नस्य दशमस्य अन्तर व्यवस्थापिका सम्मेलनस्य विषये सूचनां प्रदातुं ह्य आयोजिते पत्रकार सम्मेलने सभामुखा घिमिरे संसदः कार्ये प्रभावपूर्णे सति सर्वकारस्य कार्यमपि प्रभावकारी सम्भवतीति अगदत्। सप्तसूत्रात्मकं घोषणापत्रं प्रस्तुवन् सभामुखा घिमिरे संघीयतायाः संविधानस्य च क्रियान्वयनाय तीव्रतां प्रदातुं संघस्य प्रदेशानां स्थानीयस्तराणां च संयुक्ता सूची निर्मास्यते इति अगदत्। राष्ट्रिय सभायाः अध्यक्ष नारायण प्रसाद दाहाल संघीयतायाः प्रभावकारिणे क्रियान्वयनाय आवश्यकः विधेयर व्यवस्थां विधातुं संघीया संसद प्रतिबद्धास्तीति अवोचत। सम्मेलने प्रतिनिधि सभया राष्ट्रिय सभया च सहैव सत्तानां प्रदेशानां सभामुखाः उपसभामुखाः सचिवाश्च सहभागिनः आसन्। प्रधान न्यायाधीशः प्रकाशमान सिंह रावत न्यायालयस्य गरिमणं संस्थापयितुं विश्वसनीयतायाः पारदर्शितायाश्च आवश्यकता भवतीति धारणां व्यनक्ति। न्याय परिषदः चतुस्त्रिंशत्तम स्थापना दिवसस्य अवसरे ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे प्रधान न्यायाधीशः रावत न्यायालयस्य गरिमणः संरक्षणत्वेन कार्यं विधातुं विश्वसनीयतायाः पारदर्शी तायाश्च आवश्यकतां दर्शितवान्। तदवसरे प्रधान न्यायाधीश रावत कार्य सम्पादने अनुकूल प्रतिस्पर्धा समुचिता भवति परिषद कार्याणि आगामी दिनेषु अतिरिक्तं दायित्ववाहिनी सक्रियाणि च विधास्यन्ते इति प्रतिबद्धताम् अभिव्यनक। समारोहे विधि न्याय संसदीय विषय मन्त्री अजय कुमार चौरसिया सर्वोच्च न्यायालये प्रतिदिनं न्यायिक प्रकरणानि वर्धमानानि सन्तीत्यतः न्यायाधीशानां नियुक्तेः प्रक्रियायां विलम्बनं न विधेयम् इति प्रावोचत। कार्यक्रमे सर्वोच्च न्यायालयस्य वरिष्ठतम न्यायाधीश सपना प्रधान मल्ल महान्यायाधिवक्ता रमेश वडाल नेपाल बार एसोसिएशन संघस्य अध्यक्ष गोपाल कृष्ण घिमिरे च विचारान् व्यक्तवन्तः। गृहमन्त्री रमेश लेखकः सर्वकारः चौरस्य तास्करस्य च नियन्त्रणाय सर्वदा प्रतिबद्धोस्तीति गदति। नेपाल प्रेस युनियन संघस्य रूपन्देही जनपद शाखया इह आयोजिते पत्रकार सम्मेलने गृहमन्त्री लेखक पश्चात्तन समये नूतन प्रकारका अपराधा वर्धमाना सन्ति त्यतः तेषाम् नियन्त्रणाय सावधाना भवितुम् आवश्यकता अस्ति इति अवोचत। गृहमन्त्री लेखक मादक औषधानाम् आत्महत्याया यान दुर्घटनानाम् मानव तस्करस्य यौनजन्य हिंसायाश्च प्राचीन प्रकृतिकाणाम् अपराधानाम् वर्धनेन सहैव वित्तीय प्रविधेः अपराधस्य च वर्धनात् तेषाम् नियन्त्रणाय सर्वकारः प्रतिबद्धोऽस्तीति अवोचत। सर्वकारेण शिक्षक पदस्थानानाम् पुनरवलोकनाय कार्यदलम् निर्माय कार्यम् अग्रे सारितमस्ति। विद्यालय शिक्षा विधेयकम् आधृत्य विमर्शनार्थम् इह उपविष्टे प्रतिनिधि सभायाः शिक्षा स्वास्थ्य सूचना प्रविधि समितेः उपवेशे शिक्षा विज्ञान प्रविधि मन्त्री विद्या भट्टराई कार्यदलस्य प्रदास्यमानस्य परामर्शस्य अनुसारेण शिक्षक पदस्थानानाम् समायोजनम् विधास्यते इति असूचयत। एभ्य शिक्षकेभ्यः चातुर्मासिकम् वेतनम् प्रदीयमानम् आसीत्, तेभ्यः प्रतिमासम् वेतनम् दीयमानम् अस्तीति ज्ञापयन्ति मन्त्री भट्टराई। बालशिक्षा शिक्षकाणाम् अपि समुचिता व्यवस्था विद्यमाना वर्तते इति असूचयत। उपवेशे सांसदाः नागरिकाणाम् कृते सर्वसुलभायाः शिक्षायाः प्रदान विधेयके स्पष्ट व्यवस्थायाः विधानस्य धारणां व्यक्तवान्। सार्वजनिक प्रसारण संस्थायाः नवनियुक्तः कार्यकारी अध्यक्ष डा महेन्द्र विष्टः प्रसारणस्य विषयवस्तु नागरिक केन्द्रितं विधातुं निर्दिशति। रेडियो नेपालेन नेपाल टेलिभिजन संस्थानेन च ह्य आयोजिते पृथक पृथक कार्यक्रमे अध्यक्ष डाक्टर विष्ट राष्ट्रस्य आवश्यकताया अनुसारेण द्वयोः सर्वकारीय संचार माध्यमयोः रेडियो नेपाल नेपाल टेलिभिजनयोः एकीकरणं विधाय सार्वजनिक प्रसारण संस्था निर्मिता अस्ति, त्यतः जनतायाः विषयाणां प्रसारणमेव संस्थायाः उद्देश्यमस्ति इति प्रावोचत। अध्यक्ष विष्ट सार्वजनिक सेवा प्रसारणस्य मर्मानुसारेण रेडियो नेपालस्य नेपाल टेलिभिजनस्य च प्रसारण सामग्र्याः नागरिक केन्द्रितत्वेन प्रसारणस्य अभ्यासादेव परिणामः प्रदातुं शक्यते इति अगदत्। कार्यक्रमे रेडियो नेपालस्य नायब कार्यकारी निर्देशक खगेन्द्र खत्री, नेपाल टेलिभिजनस्य नायब महाप्रबन्धक विष्णुराम न्यौपाने, रेडियो नेपालस्य अपर नायब कार्यकारी निर्देशक चन्द्रभूषण लाल दासश्च धारणां व्यक्तवन्तः।